गणानान्त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नोतिभिः सेदसाधनम् प्रणो देवी सरस्वती वाजिनीवते धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषभे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः या नैषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृडया जाते रुद्रशिवा तनुरघोरा पापकाशिनी तयानस्तनुवाशन्तमया गिरिशन्ताभिचाकशेः यामिशुम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत शिवेन वचसा त्वा गिरिशाक्षा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुं सुमना असत अध्यवोचदधिभक्ता प्रथमो दैव्योऽभिषक अहेकश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षुश्रितात् सहस्रशोपैशागुम् हेड इमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोराज्ञियोज्या याश्च ते हस्त इषवः पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु दे निशीर्य शल्यानामुखा शिवो नः सुमना भव विज्जम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येष व आभुरस्य निषङ्गतिः जाते हेतिर्मीडुष्टव हस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायाना तताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो यशुभिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यबाहवे सेनान्ये दिशां च पतये, नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये, नमो नमः सत्पिञ्जराय द्विषेमते पतीनां पतये, नमो नमो बभ्रुषाय विव्याधिनेन्नानां पतये, नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये, नमो नमो भवस्य हेत्ये जगतां पतये, नमो नमो रुद्राय तताविने क्षेत्राणां पतये, नमो नमः सूताय हन्त्याय वनानां पतये, नमो नमो रोहिताय स्थपतये वृक्षाणां पतये, नमो नमो मन्त्रणे वाणिजाय कक्षाणां पतये, नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये, नमो नम उच्चैर्घोषायात्क्रन्दयते पत्तीनां पतये, नमो नम कृत्स्नवीताय धावते सत्त्वनां पतये नमः। नमः सहमानाय निव्याधिन आव्याधिनीनां पतये, नमो नमः ककुभाय निषङ्गिने स्तेनानां पतये, नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये, नमो नमो वञ्चते परिवञ्चते सायूनां पतये, नमो नमो निचेरवे परिचरायारण्यानां पतये, नमो नमः श्रिकाविभ्यो जिगागुं सद्भ्यो मुष्णतां पतये, नमो नमोऽसि मद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये, नमो नम उष्णीषिणे गिरिचराय कुलुञ्जानां पतये, नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो वृषजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो दावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः। नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो घृत्सेभ्यो घृत्सपदिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपदिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः కులాలేభ్య కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమః ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ వో నమో నమః శ్వభ్యశ్వపదిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ ప్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపిభిష్టాయ చ నమో మీడుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షేయసే చ నమో వృద్ధాయ చ సంవృధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రియాయ చ శేభ్యాయ చ నమః ఊర్మ్యాయ చావస్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వేప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చాపరజాయ చ నమో మధ్యమాయ చాపగల్భాయ చ నమో జఘన్యాయ చ బుద్ధ్నియాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ ఖల్యాయ చ నమః శ్లోక్యాయ చావసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చావభిందతే చ నమో వర్మిణే చ వరూధినే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చాహనన్యాయ చ నమో ధృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగినే చేషుధిమతే చ నమస్తీక్ష్ణే శవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః సోద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈధ్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చారుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమస్తీర్థ్యాయ చ కూల్యాయ చ నమః భార్యాయ చ భార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆత్తార్యాయ చ లాద్యాయ చ నమః షష్ట్యాయ చ ఫేన్యాయ చ నమః సికత్యాయ చ ప్రవాహ్యాయ చ नम हिरण्याय च प्रपथ्याय च नम किगुं शिलाय च क्षयणाय च नम कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नम कार्त्याय च गह्वरेष्ठाय च नमो रथय्याय च निवेश्याय च नम पागुंसव्याय च रजस्याय च नम शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ऊर्व्याय च सूर्म्याय च नम पर्ण्याय च पर्णशद्याय च नमोपगुरमाणाय चाभिघ्नते च नम आखिदते च प्रखिदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो एषाम् किञ्चन मम च या ते रुद्रशिवा तनु शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयत्वेराय प्रभरामहे मतिम् यथा नश्शव सद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृति क्षयत्वेराय नमसा विधेमते यच्छम् च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतो मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् वोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन हेमान आयुषिमानो गोषुमानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वधीर्हविष्मन्तो नमसा विधेमते आराध्ये गोघ्न उत पोरुषग्ने क्षयत्वेराय सुम्नभस्वेते अस्तु रक्षा च नो अधि च देव ब्रूयदा च न शर्म यच्छद्विबर्हाः स्तुभिश्रुतम् गर्ध सदयुवानम् मृगन्न भीममुपहद्नुमुग्रम् मृडाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरघायोः अवस्थिरा मघवद्भ्यस्तनुष्वमीडुष्टोकायतनयाय मृडया मीडुष्टम शिवतम शिवो नः सुमना भवा परमे वृक्ष आयुधन् निधाय कृत्तिम् वसा न आचर पिनाकम् बिभ्रदागहे विकिरिण विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यभस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयो जने वधन्वाणि तन्मसि अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि नीलग्रीवाचितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाश्रिति कंठादिवकुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपदयो विशिका सर्कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान ये पथाम् पथिरक्षय ऐलभृदाय व्युधः ये तीर्थाणि प्रचरन्ति शिकापन्तो निषङ्गिणः य एतावन्तश्च भूया पुंसश्च दिशो रुद्रावितस्थिरे तेषागुंसहस्रयो जने वधन्वाणि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् ये एन्तरिक्षे ये दिवि ये शामन्नम् वातो वरुषमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिर्चीर्दशोदीर्चीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् द्विष्मो यश्च नो द्वेष्टितम् भोजम् वेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुधम् पाशा मृत्योर्मर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानमयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरधिरुद्रो भाविशान्तकः तेनान्येनाप्याय स्वा नमो रुद्राय विष्णवे मृत्यर्मे पाहि तमुष्टु हि यस्विषु सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो फिर्देववसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे एष जोयगुम् शिवाभिमर्षणः ॐ शान्ति शान्ति शान्तिः ॐ शं च मे मयश्च मे प्रियम् च मेनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसूश्च मे क्षीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नाम यच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सूषा च मे सुदिनम् च मे शान्ति शान्ति शान्तिः ॐ हिरण्यवर्णाय पावकाया सुजातकस्य भूयात् स्विन्द्रः अग्नेया गर्भम् ददिरे विरूपास्तानापश्यग्रस्यो नाभवन्तो या सागुम् राजा वरुणो याति मध्ये सत्या नृते अवपश्यम् जनानाम् मधुसुतस्सुच यो या पावकास्तानापश्यग्रस्यो नाभवन्तो याताम् देवादिविकृण्वन्ति वक्षय्या अन्तरिक्षे बहुधा भवन्ति या पृथिवीम् पयसोऽन्दन्ति शुक्रास्तानापच्चग्रस्योना भवन्तु शिवेन माचक्षुषा पश्यतापशिवया तनुवोपस्पृशतत्वचम् मे सर्वागुम् अग्नेगुम् रक्षुषदो हुवे वो वैवर्चो बलमोजो निधत्त पवमानः सुवर्जनः पवित्रेण विचर्षणिः यप्पोता स पुनातु माम् पुनन्तु मा देव जनाः पुनन्तु मनवो धिया पुनन्तु विश्व आयवः जातवेद पवित्रवत् पवित्रेण पुनाहि माम् शुक्रेण देवदेव्यत् अग्ने क्रत्वा क्रतो गुम्रनो यत्ते पवित्रमर्षिषे अग्ने विततमन्तरा ब्रह्म तेन पुनीमहे उभाभ्याम् देव सवितः पवित्रेण सवेन च इदम् ब्रह्म पुनीमहे वैश्वदेवे पुनते देव्यागात् यस्यैवग्नेस्तनुवो वेदपृष्टाः स यामदन्तस्तदमाद्येषु वयग्रस्यामपतयोरहीणाम् वैश्वानरो रश्मिभिर्मा पुनातु वात प्राणेने शिरो मयो भूः द्यावा पृथिवी पयसापयोभिः ऋतापरि यज्ञिये मा पुनीता बृहद्भिः सवितसृभिः वर्षिष्ठैरेवमन्वभिः अग्ने दक्षैः पुनाहि मा येन देवा अपुनता येनापो दिव्यङ्कषः तेन दिव्येन ब्रह्मणा इदम् ब्रह्म पुनीमहे यः पावमानीरध्येते ऋषिभिः संवृतगुम् रसम् सर्वगुम् सपूतमश्नाति स्वदितम् मातरिष्वना पावमानेभ्यो अध्येते ऋषिभिः संवृतगुम् रसम् तस्मै सरस्वती दुहे क्षीरगुम् सर्पिर्मदोदकम् पावमानी स्वस्त्ययनी सुदुगाहि पयस्वती ऋषिभिः संवृतो रसः ब्राह्मणेष्वमृतगुम् हितम् पावमानीर्दिशन्तु नः इमम् लोकमधो अमुम् कामान् समर्थयन्तु नः देवैर्देवै समावृताः पावमानी स्वस्त्ययनी सुदुगाहि घृतश्च्युतः ऋषिभिः संवृतो रसः ब्राह्मणेष्वमृतगुम् हितम् येन देवा पवित्रेण आत्मानम् पुनते सदा तेन सहस्रधारेण पावमान्यम् पुनन्तु मा राजापत्यम् पवित्रम् शतोद्यामगुम् हिरण्मयम् तेन ब्रह्मविदो वयम् पूतम् ब्रह्म पुनीमहे इन्द्रः सुनीते सह मा पुनातु सोमः स्वस्त्या वरुणः समीच्या यमो राजा प्रमृणाभि पुनातु माम् जातवेदा भोर्जयन्त्या पुनातु भूर्भुवः सुवः तच्छैयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् चन्नो अस्तु द्विपदे शं चतुष्पदे ओ शान्ति शान्ति शान्तिः ॐ भूमिर्भूम्नार्द्योर्वरिणान्तरिक्षम् महित्वा उपस्थे ते देव्यदिदेऽग्निमन्नादमन्नाद्यायादधे आयङ्गौ वृष्णिरक्रमे दशनन्मातरम् पुनः पितरम् च प्रयन् सुवः त्रिगुम् सद्दामविराजति वाक्पतङ्गाय शिष्ये प्रत्यस्य वहद्युभिः अस्य प्राणादपानद्यञ्जश्चरति लोचना व्यख्यन्महिषस्तुवः यत्त्वा क्रुद्धपरो वपमन्युनायदवर्त्या सुकल्पमग्ने तत्र वपुनस्तो दीपयामसि यत्ते मन्युपरोक्तस्य पृथिवी मनुदध्वसे आदित्या विश्वे तद्देवा वसवश्च समाभरन् मनो ज्योतिर्जुषतामाज्यम् विच्छिन्नम् यज्ञगुम् समिमम् दधातु बृहस्पतिस्तनुतामिमम् नो विश्वे देवा इहमादयन्ता मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी ब्रह्मवर्चसपितृणाजुश्रोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूपरे सदने सत्यायने सीता समुद्रवते सावित्रे हनो देवे मह्यङ्गे महे धरणी महोव्यतिष्ठात्रृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणे इन्द्रपत्नी व्यापिनी सुरसरितिहा वायुमते जलशयनी श्रियम् धाराजा सत्यन्धोपरिमेदिनी शोपरि दत्तम् परिगाया विष्णुपत्नीमहीम् देवीम् माधवीम् माधवप्रिया लक्ष्मीम् प्रियसखीम् देवीम् नमाम्यच्युतवल्लभाम् धनुर्धराये विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा प्रचोदयात् महीम् देवीम् विष्णुपत्नीमजूर्याम् प्रदेशे मे नागुम् हविषाय जामः त्रेधा विष्णुरुगायो विचक्रमे महीम् दिवम् पृथिवीमन्तरिक्षम् तच्छ्रोणैति श्रव इच्छमाना पुण्यग्रश्लोकम् यजमानाय कृण्वते ॐ शान्ति शान्ति शान्तिः ॐ अहम् भृ రుద్రేభిర్వసూభిశ్చరామ్యహమాదిత్యే హృత విశ్వదేవైః అహం మిత్రావరుణో వాభిర్మ్యహమింద్రాగ్ని అహమశ్వినో అహం సోమామాహన సంభిర్మ్యహం త్వష్టారభుత భూషణం భగం అహం దాధామి ద్రవేణం హవిష్మాతేషు ప్రావ్యే యజమానాయ సున్వతే అహం రాశ్రే సంగమానీ వసూనాం చికితుషే ప్రథమాయ జ్ఞయానాం తాం మా దేవావ్యాదధు పురుత్రా భూరిస్థాత్రా భూర్యా భేషయంతే మయాసో అన్నమత్తియో విపశ్యతి య ప్రాణీతి య ఏం శృణోచ్యుక్తం అమంతభూమాంత ఉపక్షయంతి శృధి శ్రోత శ్రద్ధివంతే వదామి అహమేవ స్వయమిదం వాదామి జుష్టం దేవేభిః హృతమానుషేభిః యం కామహేతం తాముగ్రం కృణోమి తం బ్రహ్మాణం తమృషిం తం సోమేధాం అహం రుద్రాయ ధనురాతాణోమి బ్రహ్మద్విశేషరాపేహంతవో అహం జనాయ సమదం కృణోమ్యహం ద్యావా పృథివీ ఆవివేశ అహం సోవే పితరామస్య మూర్ధన్మమయోనిరప్స్వా హంతః సముద్రే తతో వితిష్ఠే భువనాను విశ్వోతాం ముంద్యాం పర్ష్మణోపస్పృశామి అహమేవ వాతా ఇవ ప్రభామ్యారభమాణా భువనాని విశ్వా పరోధి వా పరహేనా పృథివ్యేతా వాతే మహినా సంబాభూవా ఓం శాంతి శాంతి శాంతిః యో బ్రహ్మా బ్రహ్మణ ఉజ్జహార ప్రాణైశిరకృత్తివాసా పిహాకే ఈశానో దేవస్సన ఆయుర్దధాతు తస్మై జుహోమిహ విషాఘృతేనా విభ్రాజమానః శరీరస్య మధ్యాద్రోజమానో ఘర్మరుచిర్య ఆగాత్ సమృత్యుపాశానపనుద్య ఘోరానిహాయుషేణు ఘృతమత్తు దేవః బ్రహ్మజ్యోతిర్బ్రహ్మపత్నీషు గర్భం యమాదధాత్ పురురూపం జయంతం సువర్ణరంభగ్రహమర్కమర్చ్యం తమాయుషే వర్ధయామోఘృతేన శ్రియం లక్ష్మీమౌబలామంబికాంగాం షష్ఠీం చ యామింద్రసేరేత్యుదాహుః తాం విద్యాం బ్రహ్మయోనికుం సరూపామిహాయుషే తర్పయామోఘృతేన దాక్షాయణ్యః సర్వయోన్యః సయోన్యః సహస్రశో విశ్వరూపావిరూపాః ససూనవః సపతయః సయూధ్యా ఆయుషేణోఘృతమిదం జుషంతాం దివ్యాగణా బహురూపా పురాణ ఆయుశ్చితో న ప్రమత్నంతు వీరాన్ తేభ్యో జుహోమి బహుధాఘృతేన బాణ ప్రజాగుమ్రీరిశోమోత వీరాన్ ఏక పురస్తాత్య ఇదం బభూవ యతో బభూవ భువనస్య గోపాః యమప్యేతి భువనగుంసాం పరాయే సనోహవిర్ఘృతనిహాయుషే తు దేవః वसून् रुद्रानादित्यान् मरुतो दशाच्च ऋभून् यक्षान् गन्धर्वागुश्च पितृगुश्च विश्वान् ऋगून् सर्पागुश्चाङ्गिरसोऽथ सर्वा ऋतगुम् हुत्वा स्वायुष्यावहयावशश्वत विष्णो त्वम् नो अन्तमः शर्म यच्छदहन्त्या प्रतेधारामधुश्च्युत उत्सम् दुःख्रते अक्षितम् ॐ शान्ति शान्ति शान्तिः ॐ भद्रम् कर्णेभिः शृणुयाम देवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनूभिः व्यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः उष्मा च निहारश्च वृत्रस्योष्मा वैद्युतस्य निहारः तौतावेव प्रतिपद्येते सेयगुम् रात्रे गर्भिणी पुत्रेण संवसति तस्या वा एतदुल्बणम् यद्रात्रौ रश्मयः यथा गोर्गर्भिण्या उल्बणम् एवमेतस्या उल्बणम् प्रजयिष्णु प्रजया च पशुभिश्च भवति य एवम् वेदा एतमुद्यन्तमभियन्तम् चेति आदित्यपुण्यस्य वत्सः अथ पवित्राङ्गिरसः पवित्रवन्तौ परिवाचमासते पितैषाम् प्रत्नो अभिरक्षति व्रतम् महः समुद्रम् वरुणस्थिरो दधे धीरा इच्छे कुरुद्धरुणेष्वारभम् पवित्रम् ते विततम् ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः अतप्ततनूर्नदामो अश्नुते श्रुतास इद्वहन्तस्तत्समाशत ब्रह्मा देवाना असतः सद्येततक्षुः ऋषयः सप्तात्रिश्च यत् सर्वे त्रयो अगस्त्यश्च नक्षत्रैशङ्कृतो वसन् अथ सवितुष्यावाश्वस्यावर्तिकामस्य अमीयऋक्षा निहिता स उच्चा नक्तम् ददृशे गुहा जिद्धिवेयुः अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्षत्रमेति तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो न प्रचोदयात् तत्सवितुर्वृणीमहे वयम् देवस्य भोजनम् श्रेष्ठगुम् सर्वधातमम् तुलम् भगस्य धीमहि अपागूहत सवितातृभिः सर्वान् दिवो अन्धसः न कन्तान्यभवन् धृशे अस्त्यस्ना सम्भविष्यामः नाम नामैव नाम मे स्वस्ति प्रजाभ्यः परिपालयन्ता
న్యాయేన మార్గేణ మహిమహిషాః గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు ఓం శాంతి శాంతి.